अथ वैदिकराष्ट्रगीतम् ऋग्वेदः ॐ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य इळस्पदे समिध्यसे स नो वसून्याभर सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् देवाभागं यथा पूर्वे सञ्जानाना उपासते समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमे एषाम् समानं मन्त्रमभिमन्त्रयेव समाने नवो हविषाजुहोमि समानीव आकूतिः समाना हृदयानि वः समानमस्ति वो मनो यथा वस्सु सहासति ध्रुवाद्योर्ध्रुवा पृथिवी ध्रुवा सः पर्वता इमे ध्रुवं विश्वमिदं जगद् ध्रुवो राजा विषामयम् ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॐ अथ कृष्णयजुर्वेदः अपवा एतस्माच्छ्रीराष्ट्रं क्रामति योऽश्वमेधेन यजते ऊर्ध्वमेनामुच्छ्रयतादित्याः श्रीर्वैराष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति वेणुभारं गिरा विवेत्याः राष्ट्र त्रं वै भारः राष्ट्रमेवास्मै परियूहति अथास्यामध्यमेधतामित्याह श्रीर्वैराष्ट्रस्य मध्यम् श्रियमेवावरुन्धे शीते वाते पुनन्निवेत्याः क्षेमो वै राष्ट्रस्य शीतो वातः क्षेममेवावरुन्धे।
अथ शुक्लयजुर्वेदः हरिः ॐ सूर्जतवाचासस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सूर्जतवाचासस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त सूर्जावर्चासस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सूर्जावर्चासस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त मान्दास्ताराष्ट्रादा राष्ट्रं मे दत्तस्वाहा मान्दास्ताराष्ट्रादा राष्ट्रामामुखमयी दत्त व्राजक्षीतस्ताराष्ट्रादा राष्ट्रं मे दत्तस्वाहा व्राजक्षीतस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त वासास्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा वासास्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त साविष्ठास्ताराष्ट्रादा राष्ट्रं मे दत्तस्वाहा साविष्ठास्ताराष्ट्रादा राष्ट्रामामुखमयी दत्त सकवारीस्ताराष्ट्रादा राष्ट्रं मे दत्तस्वाहा सकवारीस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त जानावृतस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा जानावृतस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त विश्वावृतस्थाराष्ट्रादा राष्ट्रं मे दत्तस्वाहा विश्वावृतस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त तापाः स्वराजस्थाराष्ट्रादा राष्ट्रामामुखमयी दत्त माधुमातीर्माधुमातीभिः प्रचियन्ता माहिच्छतरं क्षत्रियाय वन्नवाना आनाधृष्टाः सीदाता साहौ जासौ माहिक्षतरं क्षत्रियाय दधातीः हरिः ॐ।
अथ अथर्ववेदः ॐ भद्रमिच्छन्तर्षाय स्वर्वेदस्तपो दीक्षामोपनिषे दुरग्रे ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसन्नामन्तु सहृदयं सां मनस्यमविद्वेषं कृणोमि वः अन्यो अन्यमभिहर्यत वत्सञ्जातमेवाग्न्या अनुव्रतः पितुः पुत्रो मात्रा भवतु सम्मानाः जायापत्ये मधुमतीं वाचं वदतु शन्ति वाम् मा भ्राता भ्रातारं द्विक्षन्मा स्वसारमुत स्वसा सम्यं च सौराता भूत्वा वाचं वदत भद्रया येन देवान वियन्ति नो चाविद्विषते मिथः तत्कृण्मो ब्रह्मावो गृहे संज्ञानं पुरुषेभ्यः ज्यायस्वन्तश्चित्तिनो माव्योष्टसं राधयन्तः सधूराश्चरन्तः अन्यो अन्यस्मै वल्गुवदन्त एता सद्धरीचीनान्वः सम्मानसस्कृणोमि सामानि प्रपासहवोन्न भागः सामाने योक्त्रे सहवो युनज्मि सम्यं चोऽग्निं सापर्यतारानाभिमिवाभिताः सद्धरीचीनान्वः सम्मानसस्कृणोम्येकश्नुष्टीन् संवनानेन सर्वान् देवा इवामृतं रक्षामाणाः सायं प्रातः सोमनसो अस्तु ओ
हस्ते जलपुष्पाक्षतान् गृहीत्वा सङ्कल्पं कुर्यात् ॐ स्वस्तिश्रीसमस्तजगदुत्पत्तिस्थितिलयकारणस्य रक्षाशिक्षाविचक्षणस्य प्रणतपारिजातस्य अशेषपराक्रमस्य श्रीमदनन्तवीर्यस्य आदिनारायणस्य अन्त्यापरिमितशक्त्या ध्रियमाणानां महाजलौघमध्ये परिभ्रमतामनेककोटिब्रह्माण्डानामेकतमे अव्यक्तमहदहङ्कारपृथिव्यप्तेजो वायुवाकाशाद्यावरणैरावृते अस्मिन्महति ब्रह्माण्डखण्डे आधारशक्तिश्रीमदादिवाराहदंष्ट्राग्रविराजिते कूर्मानन्तवासुकितक्षककुलिककर्कोटक पद्महापद्मशङ्खाद्यष्टमहानागैर्ध्रियमाणे ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्त सार्वभौमसुप्रतीकाष्टदिग्गजोपरिप्रतिष्ठितानाम् अतलवितलसुतलतलातलरसातलमहातलपाताललोकानामुपरिभागे भूर्लोकभुवर्लोकस्त्वर्लोकमहर्लोकजनोलोक तपोलोकसत्यलोकाख्यसप्तलोकानामधोभागे हरिवर्ष किं पुरुषभारतवर्षयोश्च दक्षिणे नवसहस्रयोजनविस्तीर्णे चक्रवालशैलमहावलयनागमध्यवर्तिनो महाकालमहाफणिराजशेषस्य सहस्रफणामणिमण्डलमण्डिते दिग्दन्तिशुण्डादण्डोद्दण्डिते अमरावती अशोकवती भोगवती सिद्धवती गान्धर्ववती काशी काञ्ची अवन्ती अलकावती यशोवतीति पुण्यपुरी प्रतिष्ठिते लोकालोकाचलवलयिते लवणेक्षुर्सुरासर्पिर्दधिक्षीरोदकार्णवपरिवृते जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराख्य सप्तद्वीपयुते अयोध्यामथुरा माया काशी काञ्ची अवन्तिकाद्वारावतीति मोक्षदायिकसप्तपुरी प्रतिष्ठिते सुमेरुनिषधत्रिकूटरजतकूटाम्रकूटचित्रकूट हिमवद्विन्ध्याचलानां महापर्वतप्रतिष्ठिते हरिवर्ष किं पुरुषयोश्च दक्षिणे नवसहस्रयोजनविस्तीर्णे मलयाचलसह्याचलविन्ध्याचलानामुत्तरे स्वर्णप्रस्थचण्डप्रस्थचान्द्रसूक्तावन्तकरमणक महारमणकपाञ्चजन्यसिंहललङ्केति नवखण्डमण्डिते गङ्गाभागीरथी गोदावरी क्षिप्रा यमुना सरस्वती नर्मदा ताप्ती चन्द्रभागा कावेरी पयोष्णी कृष्णवेणी भीमरथी तुङ्गभद्रा ताम्रपर्णी विशालाक्षी चर्मण्वती वेत्रवती कौशिकी गण्डकी विश्वामित्री सरयूकरतोया ब्रह्मानन्दामहीत्यनेकपुण्यनदी विराजिते भारतवर्षे भरतखण्डे भरतखण्डात् बहुदूरस्थित यूरोप् खण्डे हालेण्ड् देशे महर्षिवेदविज्ञानविश्वविद्यापीठपरिसरे प्रभवादिषष्टिसंवत्सराणां मध्ये मन्मथनाम संवत्सरे दक्षिणायने शरदृतौ आश्विनमासे शुक्लपक्षे अद्य दशम्यां तिथौ भौमवासरे श्रवणनक्षत्रे शूलनामयोगे तैतिलकरणे कन्याराशिस्थिते श्रीसूर्ये मकरराशिस्थिते चंद्रे कन्याराशिस्थिते भौमे कन्याराशिस्थिते बुधे कर्कराशिस्थिते देवगुरौ तुलाराशिस्थिते शुक्रे मिथुनराशिस्थिते शनौ वृषभराशिस्थिते राहौ वृश्चिकराशिस्थिते केतौ एवं ग्रहगणगुणविशेषणविशिष्टायां पुण्यायां महापुण्यशुभतिथौ विशेषतः अद्य विजयदशमी शुभ अवसरे वैदिकविश्वप्रशासनं विजयन्ते तराम् इति संकल्प्य वैदिकविश्वशान्तिराष्ट्रस्य राजधानी निर्माणार्थं डॉक्टर जाक आयन अहम् यावच्छक्तिपुरुषसूक्तप्रकारेण भूमिपूजनं करिष्ये आदौ निर्विघ्नता सिद्ध्यर्थं श्रीमहागणपतिप्रार्थनं करिष्ये ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रण्वन्नोतिभिः सीदसादनं श्रीमहागणपतये नमः प्रार्थनां समर्पयामि गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः श्रीगुरुभ्यो नमः प्रार्थनां समर्पयामि पुरुषसूक्तप्रकारेण षोडशोपचारपूजां करिष्ये ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिं विश्वतो वृत्तात्यतिष्ठद्दशाङ्गुलम् श्रीवेदपुरुषाय नमः आवाहनं समर्पयामि ॐ
पुरुष एवेदं सर्वं यद्भूतं यच्च भूयम् उतामृतत्वस्येषा नो यदन्नेनातिरोहति
श्रीवास्तुपुरुषाय नमः आसनं समर्पयामि
ॐ पुरुतावानस्य महिमातो ज्यायांश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि
श्रीवास्तुपुरुषाय नमः हस्तयोः अर्घ्यमर्घ्यं समर्पयामि
ॐ त्रिपादोर्ध्व उदयेत् पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वं व्यक्रामत्साशनानशरे अभि
श्रीवास्तुपुरुषाय नमः पादारविन्दयोः पात्यं पात्यं समर्पयामि.
ॐ तस्माद्धिराळजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः.
श्रीवास्तुपुरुषाय नमः. आचमनीयं समर्पयामि.
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मशरद्धविः.
श्रीवास्तुपुरुषाय नमः. स्नानं समर्पयामि. स्नानानन्तरम् आचमनीयं समर्पयामि.
ॐ तञ्यज्ञं बर्हिषि प्रोक्षं पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये.
श्रीवास्तुपुरुषाय नमः. वस्त्रं समर्पयामि.
ॐ तस्माद्यज्ञात् सर्वो बहुतः संभृतं पृषदाज्यं पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये.
श्रीवास्तुपुरुषाय नमः. उपवीतार्थे अक्षतान् समर्पयामि.
ॐ गन्धद्वारान् दुराधर्षान् नित्यपुष्टान् करीषिणीम् ईश्वरीं सर्वभूतानान्तामिहोपह्वये श्रियम्.
श्रीवास्तुपुरुषाय नमः. गन्धं समर्पयामि.
ॐ
अहिरिव भोगैः पर्येति बाहुञ्ज्याया हेतिं परिबाधमानः
हस्तघ्नो विश्वावयुनानि विद्वान् पुमान् पुमागुं सम्परिपातु विश्वता.
श्रीवास्तुपुरुषाय नमः. गन्धस्योपरि कुङ्कुमं समर्पयामि.
ॐ अर्चत प्रार्चत प्रियमेधासो अर्चत अर्चन् पुत्रका उत पुरन्न दृष्ट्वर्चत.
श्रीवास्तुपुरुषाय नमः. अक्षतान् समर्पयामि.
ॐ यत्पुरुषं यदधुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहूका ऊरुपादा उच्येते.
श्रीवास्तुपुरुषाय नमः. पुष्पाणि समर्पयामि.
ॐ वनस्पतिरसोत्पन्नो गन्धाढ्योधूप उत्तमः अग्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यता.
तस्माद्यज्ञात्
सर्वभूतरचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद्यजस्तस्मादजायत.
श्रीवास्तुपुरुषाय नमः. धूपमाघ्रापयामि.
ॐ तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजज्ञिरे तस्मात्तस्माज्जाता अजावयाः.
श्रीवास्तुपुरुषाय नमः. दीपं समर्पयामि. धूपदीपानन्तरम् आचमनीयं समर्पयामि. ॐ ब्राह्मणोऽस्य मुखमासीद्
बाहूराजन्यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यां शूद्रो अजायत.
श्रीवास्तवपुरुषाय नमः नैवेद्यन्निवेदयामि नैवेद्यानन्तरम् आचमनीयं समर्पयामि ॐ चन्द्रमा मनसो जातश्चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वाविरजायत श्रीवास्तवपुरुषाय नमः ताम्बूलार्थे अक्षतान् समर्पयामि मङ्गलनीराजनं करिष्ये ॐ सोमो वा एतस्य राज्यमादत्ते यो राजा संराज्यो वा सोमेन यजते देवसु वा मेतानि हवीगुंषि भवन्ति एतावन्तो वै देवानागं सवाः त एवास्मै सवान् प्रयच्छन्ति त एनं पुनः सुवन्ते राज्याय देवसु राजा भवति श्रीवास्तुपुरुषाय नमः मङ्गलनीराजनं समर्पयामि मङ्गलनीराजनानन्तरम् आचमनीयं समर्पयामि पुष्पाक्षतान् समर्पयामि रक्षरक्षान् धारयामि ॐ यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्त यत्र पूर्वे साध्याः सन्ति देवाः श्रीवास्तुपुरुषाय नमः वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि नमस्कारान् समर्पयामि अथ प्रार्थनां करिष्ये ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षं महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे श्रीवास्तवपुरुषाय नमः प्रार्थनां समर्पयामि तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयाः दिवि एव चक्षुराततम् तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परमं पदम् विष्णवे नमो विष्णवे नमो विष्णवे नमः
Vijayante Taram Rajaram Prasyasam Vijayante Taram Vishwa Vijapi Ram Raj Vijayante Taram Jay Gurudev